स्वतीर्यद्रुमात्तस्मात् विद्रुमप्रतिमाननः विनीतवेषः कृपणः प्रणिपत्योपसृत्य च तामब्रवीन्महातेजाः हनुमान् मारुतात्मजः शिरस्यञ्जलिमाधाय सीताम् मधुरया गिरा कानु पद्मपलासाक्षी क्लिष्टकौशेयवासिनी द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते किमर्थम् तव नेत्राभ्याम् वारिश्रवति शोकजम् पुण्डरीकपलाशाभ्याम् विप्रकीर्णमिवोदकम् सुराणाम् असुराणाम् वा नागगन्धर्वरक्षसाम् यक्षाणाम् किन्नराणाम् वा का त्वम् भवसि शोभने का त्वम् भवसि रुद्राणाम् मरुताम् वा वरानने वसूनाम् वा वरारोह देवता प्रतिभासि मे किन्नु चन्द्रमसाहीना पतिता विबुधालयात् रोहिणी ज्योतिषाम् श्रेष्ठा श्रेष्ठा सर्वगुणान्विता का त्वम् भवसि कल्याणी त्वमनन्दितलोचने कोपाद्वा यदि वा मोहात् भर्तारमसि ते क्षणे वसिष्ठम् कोपयित्वा त्वम् मासि कल्याण्यरुन्धति को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे अस्वाल्लोकादमम् लोकम् गतत्वमनुशोचसि रोदनादति विश्वासाति भूमिसंस्पर्शनादपि न त्वाम् देवीमहम् मन्ये राज्ञः संज्ञावधारणात् व्यञ्जनानि च देयानि लक्षणानि च लक्षये महिषे भूमिपालस्य राजकन्यासि मे मता रावणेन जनस्थानात् बलादपहृता यदि सीता त्वमसि भद्रन्ते तन्ममाचक्ष्व पृच्छतः यथा हि तव वैदैन्यम् रूपम् चाप्यति मानुषम् तपसा चान्वितो वेषः त्वम् राममैषे ध्रुवम् सा तस्य वचनम् श्रुत्वा रामकीर्तन हर्षिता उवाच वाक्यम् वैदेहि हनूमन्तम् द्रुमाश्रितम् पृथिव्याम् राजसिंहानाम् मुख्यस्य विदितात्मनः स्नुषा दशरथस्याहम् शत्रुसैन्यप्रमाथिनः दुहिता जनकस्याहम् वैदेहस्य महात्मनः सीता च नाम नाम्नाहम् भार्या रामस्य धीमतः समाद्वादश तत्राहम् राघवस्य निवेशने भुञ्जानान् मानुषान् भोगान् सर्वकामसमृद्धिने तत्र त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम् अभिषेचयितुम् राजा सोपाध्यायः प्रचक्रमे तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने कैकेयी नाम भर्तारम् इदम् वचनमब्रवीत् न पिपेयम् न खादेयम् प्रत्यहम् मम भोजनम् एष मे जीवितस्यान्तः रामो यद्यभिषिच्यते यत्तदुक्तम् त्वया वाक्यम् प्रीत्या नृपति सत्तमा तच्चेन्न विदथम् कार्यम् वनम् गच्छतु राघवः स राजा सत्यवाग्देव्याः वरदानमनुस्मरन् मुमोहवचनम् श्रुत्वा कैकेय्याः क्रूरमप्रियम् ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ज्येष्ठम् यशस्विनम् पुत्रम् रुदन् राज्यमयाचत स पितुर्वचनम् श्रीमान् अभिषेकात् परम् प्रियम् मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् दद्यान्न प्रतिगृह्णीयात् न ब्रूयात् किञ्चिदप्रियम् अपि जीवितहेतोर्वा रामः सत्यपराक्रमः स विहायोत्तरीयाणि महार्हाणि महायशाः विसृज्य मनसा राज्यम् जनन्यै माम् समादिशते साहम् तस्याग्रतस्तोर्णम् ಪ್ರಸ್ಥಿತಾ ವನಚಾರಿಣಿ ನಹಿ ಮೇತೇ ನಹೀನಾಯ ವಾಸಸ್ವರ್ಗೇ ರೋಚತೆ ಪ್ರಾಗೇವತು ಮಹಾಭಾಗ ಸೌಮಿತ್ರ ಮಿತ್ರನಂದನ ಪೂರ್ವಜಸ್ಯಾನುಯಾತ್ರಾರ್ಥೇ ದ್ರುಮಚೀರೈರಲಂಕೃತಃ ತೇ ವಯಂ ಭರ್ತೃಆದೇಶಂ ಬಹುಮಾನ್ಯ ದೃಢವ್ರತಾಃ ಪ್ರವಿಷ್ಟಾಸ್ಮ ಪುರಾ ದೃಷ್ಟಂ ವರಂ ಗಂಭೀರ ದರ್ಶನಂ ವಸತೋ ದಂಡಕಾರಣ್ಯೇ ತಸ್ಯಾಹಮಮಿತೌಜಸಃ ರಕ್ಷಸಾ ಬಹುತಾ ಭಾರ್ಯಾ ರಾವಣೇನ ದುರಾತ್ಮನಾ ದ್ವೌ ಮಾಸೌ ತೇನ ಮೇ ಕಾಲಃ ಜೀವಿತಾನುಗ್ರಹ ಕೃತಃ ಊರ್ಧ್ವಂ ದ್ವಾಭ್ಯಾಂ ತು ಮಾಸಾಭ್ಯಾಂ ತದಸ್ತಕ್ಷ್ಯಾಮಿ ಜೀವಿತಂ ಇತ್ಯಾರ್ಷೇ ಶ್ರೀಮದ್ ರಾಮಾಯಣೇ ವಾಲ್ಮೀಕೀಯೇ ಆದಿಕಾವ್ಯೇ ಚತುರ್ವಿಂಶಸಹಸ್ರಿಕಾಯಾಂ ಸುಂದರಕಾಂಡೇ ತ್ರಯಸ್ತ್ರಿಂಶತ್ ಸರ್ಗಃ.